अथ पञ्चचत्वारिंशत् सर्गः। ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः निर्ययुर्भवनात् तस्मात् सप्तसप्तार्चिवर्चसः। ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः निर्ययुर्भवनात् तस्मात् सप्तसप्तार्चिवर्चसः। महाबलपरीवारा धनुष्वन्तो महाबलाः कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः। हेमजालपरिक्षिप्तैः ध्वजवद्भिः पताकिभिः तोयदस्वन निर्घोषैः वाजयुक्तैर्महारथैः तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः विस्फारयन्तः संहृष्टाः तटित्वन्त इवाम्बुदाः। जनन्यस्तु ततस्तेषाम् विदित्वा किङ्करान् हतान् बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः। ते परस्परसङ्घर्षात् तप्तकाञ्चनभूषणाः अभिपेतुर्हनुमन्तम् तोरणस्थम् अवस्थितम् सृजन्तो बाणवृष्टिन्ते रथगर्जितनिःस्वनाः। वृष्टिमन्त इवाम्भोदाः विचेरुर्नैरुताम्बुदाः अवकीर्णस्ततस्ताभिः हनुमांश्चरवृष्टिभिः अभवत् संवृताकारः शैलराडिव वृष्टिभिः। ससरान् मोघयामास तेषाम् आसुचरः कपिः रथवेगञ्च वीराणाम् विचरन् विमलेऽम्बरे सतैः क्रीडन् धनुष्मद्भिः व्योम्नि वीरप्रकाशते। धनुष्मद्भिर्यथा मेघैः मारुतप्रभुरम्बरे सकृत्वा निनदं घोरं त्रासयन्स्तान्महाचमों चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान्। तलेनाभ्यहनत्कांश्चित् पादैः कांश्चित् परस्तपः मुष्टिनाभ्यहनत्कांश्चित् नखैः कांश्चित् व्यधारयत्। प्रममाधोरसा कांश्चित् ऊरुभ्याम् अपरां कपिः केचित्तस्य निनादेन तत्रैव पतिता भुवि। ततस्तेष्वसन्नेषु भूमौ निपतितेषु च तत्सैन्यमगमत् सर्वम् दिशो दशभयार्दितम् विनेदुर्विस्वरम् नागाः निपेतुर्भुवि वाजिनः। भग्ननीडध्वजच्छत्रैः भूश्च कीर्णाभवद्रथैः श्रवतारुधिरेणाध स्रवन्त्योदर्शितापधि विविधैश्च स्वरैर्लङ्का निनादविकृतम् तदा। सतान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः युयुत्सुरन्यैः पुनरेव राक्षसैः तमेव वीरोऽभिजगामतोरणम्। सतान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः युत्सुरन्यैः पुनरेव राक्षसैः तमेव वीरोऽभिजगामतोरणम्। चार्य श्रीमद् रामायणेन्द्रकाण्डे पञ्चचत्वारिंशत्सर्गः। पदामभर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहं। धर्मात्मा सत्यसन्धश्च रामो दासरथिर्यदि पौरुषे च प्रतिद्वन्द्वः शरेणञ्जहि रावणिम् श्रीरघुनन्दन परब्रह्मणे नमः। Not even 5 minutes. All the seven, while coming itself, started throwing arrows all through the area and also on Hanuman. Hanuman just watched for a while and made a big roaring sound by hearing which all they just scattered all around. And then he jumped in between those forces and with the fist and with the legs he was just kicking a few people, and with nails he was just tearing them off some people who holding the heads and throwing unto others. And thus he was just made Veera Viharam. Because Raghuji came, so the Veera Viharam is very active. And within 5 moments, Hanuman finished all those 7 the sons of the minister and quietly went on to the Toranam again and sat in meditation. Just raising the wall.